ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवं बभूवते धनुः शिवाशरं व्याजातपतया नो रुद्रमृडया याते रुद्रशिवा तनोरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः यामिषुं गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताङ्गुरुमाहि गुंसेः पुरुषं जगत् शिवेन वचसा ता गिरिशाच्छावदामसि यथा नः सर्वमिज्जगदयक्ष्मगुंसुमना असत् तज्जवोचदधि भक्ता प्रथमो दैव्योऽभिषक् अहेगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चे मागुं रुद्रा अभितो दिक्षुषिताः सहस्रशो वैशागुं हेड इवहे असौ यो वसर्पतिनीलग्रेभो विलोहितः उतैदं गोपा अदृशन्नदृशन्नुदहार्यः उतैनं विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्ता नो हन्तेभ्यो करं नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च ते हस्त इषभः पदाता भगवो वप अवतद्यधनुस्त्वगुंसहस्राक्षशतेषुधे निषेर्यशल्यानाम् मुखा शिवो नः सुमना भव विद्यन्धनुः कभर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतर्मेढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाततय धृष्णवे उभाभ्यामुतते नमो बागुभ्यान्तवधन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः